हरिः ॐ। कौसल्यासु प्रजा राम पूर्वा सन्ध्या प्रवर्तते, उत्तिष्ठ नरचार्दूला कर्तव्यं दैवमाह्निकम्। कौसल्यासु प्रजा राम पूर्वा सन्ध्या प्रवर्तते, उत्तिष्ठ नरचार्दूला कर्तव्यं दैवमाह्निकम्। उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज, उत्तिष्ठ कमलाकान्ता त्रैलोक्यं मङ्गलं कुरु। उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज, उत्तिष्ठ कमलाकान्ता त्रैलोक्यं मङ्गलं कुरु। मातः समस्त जगतां मधुकैटभारेः वक्षो विहारिणि मनोहर दिव्यमूर्ते, श्रीस्वामिनिश्रित जनप्रिय दानशीले श्रीवेङ्कटेश दयिते, तव सुप्रभातम्। तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले, विधिशङ्करेन्द्रवनिताभिरचिते वृषशैलनाथ दयिते दयानिधे। अत्र्यादिसप्त ऋषयः समुपास्य सन्ध्याम्, आकाशसिन्धुकमलानि मनोहराणि आदाय पादयुगमर्चयितुम् प्रपन्नाः, शेषाद्रिशेखर विभो तव सुप्रभातम्। पञ्चाननाब्ज भव षण्मुखवासवाद्याः त्रैविक्रमादिचरितम् विबुधास्तुवन्ति, भाषापतिः पठति वासरशुद्धिमारात्, शेषाद्रिशेखर विभो तव सुप्रभातम्। ईशत् प्रफुल्ल सरसीरुह नारिकेल पूगद्रुमादिषु मनोहर पालिकानाम् आवाति मन्दमनिलः सह दिव्यगन्धैः, शेषाद्रिशेखर विभो तव सुप्रभातम्। उन्मील्य नेत्रयुगमुत्तम पञ्जरस्थाः पात्रावशिष्ट कदली फलपायसानि, भुक्त्वा सलीलमथ केलिशुकाः पठन्ति, शेषाद्रिशेखर विभो तव सुप्रभातम्। तन्त्री प्रकर्ष मधुरस्वनया विपञ्च गायत्यनन्त चरितम् तव नारदोऽपि, भाषा समग्रमसकृत्करचार रम्यम्, शेषाद्रिशेखर विभो तव सुप्रभातम्। भृङ्गावली च मकरन्द रसानुविद्ध झङ्कार गीत निनदैः सह सेवनाय, निर्यात्युपान्त सरसी कमलोदरेभ्यः, शेषाद्रिशेखर विभो तव सुप्रभातम्। योषागणेन वरदध्नि विमध्यमाने घोषालयेषु दधिमन्थन तीव्रघोषाः, रोषात्कलिम् विदधते ककुभश्च कुम्भाः, शेषाद्रिशेखर विभो तव सुप्रभातम्। पद्मे शमित्र शतपत्र गतालि वर्गाः हर्तुम् श्रियम् कुवलयस्य निजाङ्गलक्ष्म्या, भेरीनिनादमिव बिभ्रति तीव्रनादम्, शेषाद्रिशेखर विभो तव सुप्रभातम्। श्रीमन्नभीष्टवरदाखिलोकबन्धो श्रीश्रीनिवास जगदेक दयैक सिन्धो, श्रीदेवतागृह भुजान्तर दिव्यमूर्ते, श्रीवेङ्कटाचलपते तव सुप्रभातम्। श्रीस्वामि पुष्करिणिका प्लवनिर्मलाङ्गाः श्रेयोर्थिनो हर विरिञ्चि सनन्दनाद्याः, द्वारे वसन्ति वरवेत्र हतोत्तमाङ्गाः, श्रीवेङ्कटाचलपते तव सुप्रभातम्। श्रीशेषशैल गरुडाचल वेङ्कटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् आख्याम् तदीय वसतेरनिशम् वदन्ति, श्रीवेङ्कटाचलपते तव सुप्रभातम्। सेवा परा शिव सुरेश कृशानुधर्म रक्षोऽम्भुनाथ पवमान धनाधिनाथाः, बद्धाञ्जलि प्रविल सन्निध शीर्ष देशाः, श्रीवेङ्कटाचलपते तव सुप्रभातम्। धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः, स्वस्वाधिकार महिमादिकमर्थयन्ते, श्रीवेङ्कटाचलपते तव सुप्रभातम्। सूर्येन्दुभौम बुध वाक्पति काव्य सौरिस्वर्भानुकेतु दिविशत् परिषत् प्रधाना त्वद्दास दास चरमावधि दास दासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् त्वत्पादधूलि भरित स्फुरितोत्तमाङ्गाः स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः कल्पागमाकलनया कुलताम् लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्ग पदवीम् परमाम् श्रयन्तः मर्त्या मनुष्य भुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेक शरण्यमूर्ते श्रीमन्ननन्त गरुडादिभिरक्षिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे श्रीवत्स चिह्न शरणागत पारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् कन्दत्पदत्पहर सुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुह कुट्मल लोल दृष्टे कल्याण निर्मल गुणाकर दिव्य कीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् मीनाकृते कमठकोल नृसिंहवह्निन् स्वामिन् परश्वथ तपोदन रामचन्द्र शेषांश रामय दुनन्दन कल्कि रूप श्रीवेङ्कटाचलपते तव सुप्रभातम् येला लवङ्ग घनसार सुगन्धि तीर्थम् दिव्यम् वियत्सरिति हेमघटेषु पूर्णम् धृत्वाद्य वैदिक शिखामणय प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः श्रीवैष्णवाः सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ब्रह्मादयस्वरवराः समहर्षयस्ते सन्तः सनन्दनमुखास्त्वथ योगिवर्याः धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् लक्ष्मीनिवास निरवध्य गुणैक सिन्धो संसार सागर समुत्तरणैक सेतो वेदान्त वेद्य निज वैभव भक्त भोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् इत्थम् वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनम् पठितुम् प्रवृत्ताः तेषाम् प्रभात समये स्मृतिरङ्गभाजाम् प्रज्ञाम् परार्थ सुलभाम् परमाम् प्रसूते इत्थम् वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनम् पठितुम् प्रवृत्ताः तेषाम् प्रभात समये स्मृतिरङ्गभाजाम् प्रज्ञाम् परार्थ सुलभाम् परमाम् प्रसूते।